वाञ्छमिन्द्रमूदो भवामहे योगो जिद्धदजिदस्वजिद्धः इमन्नो यज्ञम् विहवे जूढस्वास्य कुल्मो हरिवो मेदिनम् त्वा आयुष्यम् वर्चस्यम् राजस्फोटमोद्धीतम् इदम् हिरण्यम् वर्चस्वैराजादिशताजिमाम् उच्चैर्वाजिप्रेतनाशात्सभासाहन्धनञ्जयम् सर्वाः समग्रारुद्धजो हिरण्येऽस्मिन् समाहिताः सुनमहम् हिरण्यस्य पितुर्मानेव जगृभ तेन माम् सूर्यत्वचमकरम् पूरुषप्रियम् सम्राजम् च विराजम् च भिष्टिर्या च मे ध्रुवा लक्ष्मीराष्ट्रस्य यामुखेत यामामिन्द्रसंसृज अग्नेः प्रजातम् पर्यद्धिरण्यममृतम् यज्ञे अधिमत्येषु येनद्वेदसैलेन अर्हति जलामृत्यर्भावधियो विभत्ति यद्वेदराजावरुणो यदु देवी सरस्वती इन्द्रो यद्वृत्रः वेद तन्मे वच्च सहायुषे न तद्रक्षांसि न पीशाचाश्चरन्ति देवानामोजः प्रथमगम् एतत् यो विभक्ति राक्षायणा हिरण्यम् स देवेषु कृणुते दीर्घमायुः समानुष्येषु कृणुते दीर्घमायुः यदा भद्रम् राक्षायणा हिरण्यम् सदानीकाय सुमनस्य माना अन्ना भद्रामि सदसारदायुष्माञ्जरदक्षर्यथा सत् घृता दुर्लब्धम् मधो मत्सुवर्णम् धनञ्जयम् धरुणम् धारयिष्णो ऋणक्सपत्नानुधरांश्च कृण्वदारोहमाम् महते सौभागाय प्रियम् मा गुरुदेवेषु प्रियम् राजसु मा गुरु प्रियम् विश्वेषु गोत्रेषु महि देहि रुचारुचम् अग्निर्येन विराजति सूर्यो येन विराजति विराज्ये विराजति तेनास्मान् ब्रह्मणत्वदेविराजसमिधम् गुरु नाददासीन्नो ददासीत् तदानीन्नासीद्रजो नो व्यो मा परो यत् किमावारी भक्कुहकस्य धर्मन्नम् भक्किमासीद्गहनङ्गभीरम् न मृत्युरासीदमृतन्न दर्हि न राज्या अह्न आसीत् प्रकेतः आनीतपातम् सुधजाततेकम् तस्माद्धान्यम् न परः किञ्चनास तम आसीत् तमसा गूढमग्रे प्रकेतम् सलिलम् सर्वमाजितम् दुःखेनाभ्यपीहितम् यदासीत् तपसस्तम् हिनाजायतैकम् कामस्तदग्रे समवर्तताधिमनसोरेतः प्रथमम् यदासीत् सदो बन्धुमसति निराबिन्दम् हृदि प्रतीष्याः कवयो मनीषा जिवस्तीनो विततो रश्मिरे रामधस्वीदासी श्रीदासी हेतोधा आसन् महिमान आसन् सुधा अवस्थात्मयादिपरस्ताद् को अद्भावेदक इह प्रवोचत्कुत आजाता कुत इयम् विसृष्टिः अर्वाद्येवा अस्य विसर्जनेनाथा को वेदयत आबभूव इयम् विषट्टर्यत आबभूव यदि वा दधे यदि वा न यो अस्याध्यक्षः परमेव्यो मन्सो अङ्गवेद यदि वा न वेद यो यज्ञो विश्वतस्तन्दोभिस्तदयेकसतम् देवकर्मेऽभिराजतः इमे वायन्ते पितरो याययो प्रमया प्रभयेत्याः सदे तते कुमाङ्गेनम् दनदवक्रेणत्य भुवान् विदत्ते अधिनाके अस्मिन् इमे मयूखा उपासेत रोषदस्तामानिषत्रस्तसधान्योतवे आसीत् प्रमाकरतिमाकिम् निदानमाज्यम् किमासीत् परिधिक्कः आसीत् छन्दः किमासीत् प्रभोगम् किमुक्तम् यद्देवा देवमयजन्त विश्वे अग्नेर्गा यत्र्या भवत्सयघोष्णिहाया सविता सम्बभूव अनर्थभासो मा भुक्थैर्महस्वान् बृहस्पतेर्बृहती वाच मावत् वीरान्मित्रावरुणयोरभि श्रीरिन्द्रस्य दृष्टभिग भागो अह्नाः विश्वान् देवाञ्जगत्या विवे सत न चाकृषजो मनुष्याः चाकृप्रेते नर्षजो मनुष्याः यज्ञे जाते पितरो नः पुराणे पश्यन्मन्ये मनसा चक्षसा तान्ययिमम् यज्ञमयजन्त पूर्वे सकस्तो मा सहचन्दस आवृतः सह प्रमाषय सप्तदेव्याः पूर्वेषाम् पन्था मनुजस्य धीरा अन्बालेभिरेरथ्यो नरस्मीन् अवप्राचायन्द्रविश्वाङ्गमित्रा न पापाचो अभिभूतेऽनुदस्व अपोदीचो अपसूरा धरा च गुरौ यथा तव सर्वन्मदेम कुविदङ्गयवमन्तो यवम् यद्यथा ताञ्जनपूर्वम् वियूय इहैहैषाम् गणैभोजनानि एवरिषो नमो ऋद्भिर्न जग्मो नैश्वर्यदा जातमस्ति नो दश्रवो विविदे सङ्गमेषु क्रम्यन्त इन्द्रम् सख्याय विप्राहस्वायन्तो हृषणम् भाजयन्तः युवम् सुरामश्विनानमूचा वा सुरेशचाः दिपिपानासु भस्पतीन्द्रम् कर्म स्वावतम् पुत्रमेव पितराः वश्विनोभेन्द्रावधुः काव्यैर्दंसनाभिः यत्सु रामम् व्यपि वत्सजेभिः सरस्वती त्वामघवन्नभिप्नक् इन्द्रः सुत्रामा स्वभाम् अवोभिः सुमृको भवतु विश्ववेदाः बाधतान् द्वेषो अभयम् कृणोतु सुवीर्यस्य पदयस्याम तस्य वयम् सोमतौ यज्ञ यस्यापि भद्रे सौ मनसे स्याम स सुत्रामा स्वभाम् इन्द्रो अस्मे आराचिद्वेषस्व न दुर्योजोतु ीजानमिद्योर्घोर्तावसुरीजानम् भूमिरभिप्रभूषणी ईजानम् देवाभश्विनाभिसुम्नैरवर्धताम् आवाम् मित्रावरुणाधारयक्षीति सुषुम्नेऽपि तत्पदा यजामसि युवो प्राणाय सख्यैरभिश्यामरक्षसाः अधाः चिन्नु यद्दिधीषामहे वामभिप्रियम् रेक्नः पद्यमानाः यद्वाङ्मायत्पुष्य जिरेक्नः संवारन्नकीरस्य मघानि असाभन्यो आसुरसूयदद्योस्त्वम् विश्वेषाम् वरुणासि राजा मूर्धारतस्य च कन्नैतापतेन सान्द्रकद्रुक् अस्मिन् एतच्छकभूतये नो हिते मित्रे निगतान् हन्ति वीरान् अवोर्भायद्धात्तनोष्वः प्रियासु यज्ञियाः सर्वाः युवर्हि मातादिर्विचेतसाद्यो भूतनि अवप्रियादिष्टनसूनोलिलिप्तरश्मिभिः युवं च प्रराजावसीदतं तिष्ठद्रथं न दूर्षदं वनर्षदम् तानः कनो गजन्तेऽर्नृमेधस्तत्रे अम्भासः सुमेधस्तत्रे अम्भासः रोष्वस्मे पुरो रथमिन्द्राय सूषमर्चत अधिके जिजुलोककृत्सङ्गे समर्सो वृत्रहास्माकम् बोधितोधितानभन्दामन्यकेषाम् जाता अधितन्वसु त्वम् सिन्धो ग्रवासुयोधरातो अहम् न हिम् शत्रुरिन्द्रजज्ञिषे विश्वम् पुष्यति वाद्यन्तम् त्वापरिष्वजामहे न भन्तामन्यकेषाम् जाता अधितन्नासु विषु विश्वारातयोर्यो न सन्तनो धियाः असस्तासि सत्रामे वधम् यो न इन्द्रजिघाम् सदियाते रातिर्दतिर्वसु न भन्तामन्यकेषाम् जाता अधिधन्वसु यो न इन्द्राभितो जनो अवृगायुरादिते सति अधस्पदम् तमीम् कृति विबाधो असि सासहिर्न भन्तामन्यकेषाम् जाता अधिधन्वसु यो न इन्द्राभिता सदिसनाभिर्यश्च निष्ठ्याः अवदस्य बलम् दिरमहीवद्यो न धत्मना न भन्तामन्यकेषाम् जाता अधिधन्वसु अयमिन्द्रत्वाय वस्तके त्वमारभामहे ऋतस्य नः पथा न याति विश्वानि दुरितान भन्तामन्यकेषाञ्जाता अधिधन्वसु अस्मभ्यम् स्वत्वमिन्द्रताम् शिक्षयादो हते प्रतिपरम् चरित्रे अच्छिद्रोऽग्नेयज्ञसहस्रधारापयसामहीयोः उभे यदिन्द्ररोदसी आपप्रासोषायैव महान्तामहीनाम् सम्राजम् चर्षणीनाम् देवी जनित्र्यजी जनद्भद्रा जनित्र्यजी जनत् अवस्मदुर्गणा यतो मर्तश्च तनुः स्थिरम् अधस्मदम् तमीम् कृधियो अस्मादिदे सति देवी जनित्र्यजी जनद्भद्रा जनित्र्यजी जनत् अवत्या बृहतीर्षो विश्वश्चन्द्रामित्रहन् सती विश्वक्रधुनुहेन्द्रविश्वाभिरोतिभिर्देवी जनित्यजी जनद्भद्रा जनित्यजी जनत् अवयत्वम् सदग्रधमिन्द्रविश्वानि धूनुषे रयिम् न सुन्वते स चासहस्रिणीभिरोतिभिर्देवी जनित्यजी जनद्भद्रा जनित्यजी जनत् अपस्वेदायिभाभितो विष्णक्पतन्तु दिद्यवाः दूर्वायायि वदन्त भोव्या अस्मदे ददुर्मतिर्देवी जनित्र्यजी जनद्भद्रा जनित्र्यजी जनत् दीर्घम्यम् कुशम् यथा सत्यम् बिभर्षिमन्तमः पूर्वे नमघवन्पदायोपयाङ्गयमो देवी जनित्र्यजी जनद्भद्रा जनित्र्यजी जनत् न किर्देवामिनीमसि न किरायोपयामसि मन्त्रश्रुत्यम् चरामसि अक्षेभिरपि कक्षेभिरत्राभिसंरभामहे यस्मिन् वृक्षे सुपलासे देवैः संविवादे जमः अत्रा नो विस्पतिः पिता पुराणाम् अनुवेनति पुराणाम् अनुवेनन्तम् चरन्तम् पापया भुजा असूयन्नभ्यदागसम् तस्मा अस्पृहयम् पुनः ยังกูมาดนบัมระธามาจักรมวนสาคริโนเอเกนะวิสตัพรานจมรัชนนาดีดิชสิยังกูมาดพระวัตตโยรธรรมวิปรภยสปริตัมสามานุพระวัตตดัตมิโตนาภยาหิตัมกักกูมาดมาจนะยัตรธังโกนิราวัตตยติกัสเวตระดัตยโนบรูยาดนุเดยียะธาบาบดยะธาบาบดนุเดยีตะโตอักระมจายะตะปุรัสตาตุดนาดาตัพปัสจานนิรยานัมกรตัมยิจัมยมัสยสาดานัมเดวะมานัมยะดุจเตยมัสยธัมยะเตนาลีระยังเกวิปปริชกตาเกศาอนิมเกศีวิชัมเกศีวิบัติโรดาสีเกศีวิชัมสัตว์เสเกศีตัมโจติรุจเตมุนายโอบาตารสนาปิสังกาวาสเตมลาวาตัสยาดุจราจิมยันติยัตเทวาโสอภิคชตาอุณมาติตาโมเนเยนวาตาอาตัสติมาบยมสัจิเลดัสมาคัมยูยมมัตตาโสอภิปัสยตาอันตริกเชนปตติวิสวารูปาวจากะสติมุนยเดวัสยเดวัสยตุกรัจยสขาหิตาวาทัสยาสโลภายุสสคาโตเทเวทีโตมุนีอุภาวสมุตราวาคเชติยัสสะปูรวาหุตาปะระหะอัสสะระสังกันธรวานามมริกานามจรเนจรันเนกเกสีเกตัสยมิตวานสคาสวาดุรมดินตมหาวาจุรัสมาอุปามันตัพินัสติสมากุณันนามาเกศีวิรัสยปาตเรนยัตรุตเรนาวิบัตสหาอุตเดวาอาวาหิตัมเดวาบุญนาจธาปุนาหะอุตากัสจักรุชัมเดวาเดวาอาจีวจธาปุนาหะวาภิมวาตุวาตาสินโทราปราปตาหะรักษมเตอัญญาวาดุปรานโยวาดุยัตรปาหะอาวาตวาหิเดชจัมวิวาตวาหิยัตรปาหะปัมหิวิสตเบชโยเทวานาดุตยียเสอาตวากมัมสันตาติภิรทโออริฐตาติภิหิดักษมเตวัตรมาภารจมปรายักษมสุภาพิเตรายัมตาภิหะเทวาสตราจตามมรุตังกนะรายัมตามวิสวาภูตานิยธานมรปาอาสติआपयिद्वाभु भेषजीरापो अमीवचातनीः आपःसर्वस्य भेषजीस्तास्ते गण्वन्तु भेषजम् अस्ताभ्याम् दशशाखाभ्याम् जिह्वा वाचः पूरो गवी अनामयत्नुभ्याम् त्वाताभ्याम् तोपस्पृशामसि तवत्ययिन्द्रसख्येषु वह्नाजरितम् मन्वानाव्याधर्जरुर्वलम् यत्रा दशस्यन्नुषतो ऋणन्नपः कुत्सायमन्मह्यश्च संसयाः अवादृशः प्रश्वस्वञ्जयो गिरीनुदाजगुस्रा अभिवो मधुप्रियम् अबद्धयो वनिनो अस्यदं ससासुसो चसूर्यादितजातजा गिरा विसूर्यो मध्ये अमुचद्रथं दिवो दिदद्धासाय प्रतिमानमार्याः नृणानि विप्रोरसूरस्य मानिन इन्द्रो व्यास्य चक्रवा विश्वना ృణా అయోధ్యతే నో విద్వా విభిందే ఇంద్రస్య వజ్రాద విభేద విష్ణసహ్రామ ఏదాజే కజే గమకృణోరయజ్ఞం మాదాధిజ్య విత్వజా విభిన్నం భరతి ప్రతింపితా సూర్యరస్మిర్హరిరేదపురస్వాత్సవిజ్యోతిరుదయాజస్రం తస్య భూరా ప్రసవేయాది విద్వాన్ సంపశ్యన్ విశ్వాభువనాని గోపా ఋజక్షాయేణ దివో మధ్య ఆస్తావప్లివాన్ రోదసీ అంతరిక్షం విశ్వాజీరే ఘృతాచీరంతరా పూర్వమపరంచకేతు రాజో రుద్ర సంగమనో వసూనా విశ్వాచే సజీ దేవీవ సమిత సత్యధర్మేంద్రోనతస్థౌ సమలేధనా విశ్వాసం సోమగంధర్వమాపో దృశీస్తృతేనాయన్ తదన్వైరింద్రోరారహాణ ఆసాం పరిదూర్యస్య పరిధీంగ్రామస్య విశ్వాసురభితన్నో గృణాతు దివ్యో గంధర్వో రజసోభిమానా యద్వాఘాసత్యముదయన్న విద్మధియో ఎన్వానోధియన్నో అవ్యా సస్నీమవిందచ్చరణే నదీనామపావృణో అస్మవ్రజానాం గంధర్వో అమృతానివోచలీంద్రో దక్షం పరిజానాదహీనా అగ్రేతవస్రవోపజోమయిభ్రాజంతే అర్చయో విభావసో బృహద్వారోసమసావాజముఖ్యా అందధాసిదాసురే కవే పాపకవర్చా శుక్రవర్చా అనూనవర్చా ఉదీయర్షి భానునా పుత్రో మాతరా విచరన్వపావజిభ్రణక్షిరోదసీ ఉభే ర్మందస్వీర్భిరస్ందర్భూరివత్పదశ్చిత్రోదయో భావజారాజన్నే ప్రథయస్వజంతుభీరస్మేరాజో అమర్త్య సదర్శదస్య వపుషో విరాజసి వృణక్షీశాన సింగతం ధ్వరస్ ప్రచేత సంశయం తం రాధసోమాజిం భావస్ సుభగాం మహీమిషం దాసిదానసిం ప్రయమ్ మహిషం విశ్వదర్శనమగ్నిం సుమ్నాయ దధిరే పురోజనా శుక్రన్నం సప్రథస్తమం త్వాహిరాజీవ్యంబానూషాయుగా అగ్నే అచ్చావదేహన ప్రత్యంగ సుమనాభవ ఋణోయచ్చ విషస్వదేహనస్వం ఋణోయచ్చర్యమా ప్రభగ ప్రబృహస్పతి ప్రదేవాహ్నోదసూద్రా రాజో దేవీ దాతు సోమం రాజా నమవసేర్భిర్హవామహే ఆదిత్యాన్ విష్ణుం సూర్యం బ్రహ్మాణం చ బృహస్పతిం ఇంద్రవాజో బృహస్పతిం సుహవేహః వామహే యథా నః సర్వమిత్రః సంగత్యాం సుమనా అసత్ అర్యమణం బృహస్పతిమింద్రం దానాయ చోదయ पादम् विष्णुम् सरस्वतीम् सवितारम् च वादिनम् वरन्नो अग्ने अग्निभिर्ब्रह्म यज्ञम् च वर्धय वर्णोः देवताः दये राजो दानाय चोदय अयमग्ने चरितात्वे अभूतविदहदस्सूनो न ह्या अन्यदस्याप्ययम् भद्रम् हि धर्मत्रिवरूधमस्तीत आरे हिंसा नामपदिज्यमाग्रीहि प्रवत्ते अग्ने जनीमापितो यतः साति भविस्वाभुवनान्दृञ्जते प्रसप्ताय प्रसारिणन्दनो धियः पुरश्चरन्दि पशुपाजीवत्मनाः उतमा उपरि वृणक्षिवप्सद्बहो लग्नकुलपस्य स्वधावः उदचिल्या उर्वराणाम् भवन्ति माते हेतिम् तवीषीम् चुक्रुधाव यदुद्वतो निवतो यासि वप्सत्पृथगेषि प्रगद्धिनी वसेना यदा देवातो अनुवाति शोचर्वप्ते भस्मस्रूपपसि प्रभूम तत्यस्य श्रेण यो ददृश्रजेकम् नियानम् भवो रथासः बाहूयदग्ने अनुमन्वेजानोऽन्यम् गुत्थानामन्वेषि भूमिम् वृत्ते सुष्मा जिहता वृत्ते अर्चिरुत्ते अग्ने तदमानस्य वाजाः उच्छन्दस्वरिणमवध्वमानात्वाच्य विश्वेव सव सदन्तु अपामिदन्ययनम् समुद्रस्य निवेशनम् अन्यम् क्रेण श्वेतः पन्थाम् तेन याहि वसा नु आयने ते परायने दूर्वारोहन्तु पुष्पिणीः हृदाश्च पुण्डरीकानि समुद्रस्य गृहाजिमे भद्रन्नो अपि वादयमनः हरिः ॐ जिवद्रिमृदुरवर्थमस्वन्नगादवे कक्षीवम् तञ्जति पुनारथम् न कृणुतो नवम् चञ्चिदस्वन्नपादिनामरेण भोजमत्रात दृढम् ग्रन्थिन्न विष्ट्यधमत्रिञ्जमिष्ठमारजाः नगादम् श्रेष्ठावत्र येषु भ्रासिषाः सतम् धियाः अथाहि वाम् दिवो न रापुरस्तो भो न विशसे चिते तद्वाम् सुराधसा राजस्सु मदिरस्विना आयन्नः सदने प्रसौ समाने पर्षथो नरा युगम् भुज्युम् स मुद्र आरज सः पारयीहिङ्खितम् जातमच्छाः पदत्रिभिर्ना सत्या सातये कृतम् आवाम् सुम्नैः संयोजीभवम् हिष्ठा विश्ववेदसा समस्ते भूडदन्नरोत्सन्न विप्युषीरिषाः अयम् हि ते अमर्त्ययिन्दुरत्यो न पत्यते दक्षो विश्वायुर्वेधसे अयमस्मासु काव्यर्भर्वज्रोदास्वते अयम् बीभर्त्योर्ध्वकृशनम् मदनृभुर्न कृत्यम् मदम् गृढस्येना जगत्पन आसुस्वासुपंसगः अवधीते दहि सुवाः यम् तु कर्णः परावतस्येनस्य पुत्र आभरत् सदचक्राङ्गो गोह्यो वर्तनिः यन्ते सेनश्चारूपमृगम् पदाभरदरुणम् मानमन्धसः एनावयो विचार्याय जीवस एनाजागारबन्धुता एवादरिन्द्र इन्दूना देवेषु जिद्धारया देवहित्यजाः स रत्तावजो वितार्याजस्चक्रतो क्रत्वाजभस्मरासुतः इमाङ्खनाम् योषधिम् वीरुधम् बलवत्तमाम् जया सपत्नीम् बाधते जया संविन्दते पतिम् उत्तानवर्णे सुभगे देवजूते सहस्वति सपत्नीम् मे पराधमपतिम् मे केवलम् कुरु उत्तराहमुत्तरमुत्तरे दुत्तराभ्यः अथा सपत्नीया ममाधरा साधराभ्यः न ह्यस्या नाम गृह्णामिनो अस्मिन् रामते जने परामेव परामतम् सपत्नीम् गमयामसि अहमस्मि सह मानाथत्वमसि सा सहिः उभे सहस्वती भूत्री सपत्नीम् मे सहावहै उपदेधाम् सह मानामभित्वा धाम् सहीयसा मामप्रदे मनो वत्सम् गौरीव धावतु पथा वारीव धावतु अरण्यान्यरण्यान्यसौ या प्रेमनस्यसि कथाग्रामन्न पृच्छसि त्वाभिरेव विन्दति यवदते यदुपावदिदिच्छिकः आहारिभिरिव धावयन् अरण्यानिर्महीयते उदकावाजिवादञ्च्युदवेष्मेव दृश्यते उतो अरण्यानि सायम् स गणीरिव सर्जति गामङ्गैरवाह्वयति गामङ्गैरो अवाभिरण्यान्याम् सायमकृक्षमन्यते नवारण्यानिर्हम् जन्यश्चेन्नभिगच्छति स्वादोः फलस्य जध्वजथा कामन्निपद्यते आञ्जनगन्धिम् सुरभिम् वह्वन्नाम कृषीवलाम् प्राहम् मृगाणाम् मातरमरण्यानि मासंसिषम् श्रत्रे दधामि प्रथमाय मन्यवे हन्यद्रत्रम् नर्यम् विवेरवः ेयत्वा भवतो रोदसी अनुरेजते सुष्मात्पृथिवीजत्रिमः त्वम् मायाभिरणवज्यमायिनम् द्रवस्यतामनदा मित्रमद्वयः स्वामिन्नरोः मृणते गविष्टिधुत्वाम् विश्वासुभव्यासृष्टिषु ऐषु चाकन्धिपुरुहूतसूरिषु वृथा सोजे मघवन्नाम् अर्चन्दिलोकेतनजे परिष्टिषु मेधसादावादि नमः क्रजेधने स इन्नु राजः सुभृतस्य चाकनन्मदम् जो अस्यरम् ह्यंसिकेतति मघवन्ताश्वध्वरो मक्षूसवाजम् भरते धनानृभिः त्वम् दर्धाय महिनाग्रेणान पुनगृधि मघवन् श्रग्धिराजः त्वन्नो मित्रो वरु नो न माजीर्वितो न तस्मदयसे विभक्ता सुष्वानास इन्द्रस्तुमधित्वा सदवाम् सर्चतु विनम् न भाजम् आनो भरतुमिदम् यस्य जागन्मनादनासनुयामत्तोताः विश्वस्तमिन्द्रदूरजातो दाधीर्विदसूर्ये रसह्याः गुहायिदङ्गुच्यम् गोलमत्सु विभ्रमसि प्रस्रवनेन सोमम् हर्यो भागिरो अभ्यर्थ विद्वाणीनाम् विप्रस्तुमतिम् च गानः ते श्यामये रनयम् दसोमैरेणो ददुभ्यम् रसोलभक्षैः इमा ब्रह्मेन्द्रतुभ्यम् संसिदानृभ्यो नृणाम् शूरसवाः तेभिर्भवसक्रदुर्येषु चारन्मुदत्रायस्वर्णतबुदस्तीन् श्रुधीरवमिन्द्रसूरवृत्याः बुधस्तावदेन्यस्यार्कैः आयस्तेजोनिम् कृतवन्तमस्वारून्यम् न निम्नैर्द्रवयन्तवक्वाः सवितायन्द्रैर्पृथिवीमरम् नादस्कम्भरे सविता जामधृंहत् अस्वामिवादक्षध्वनिमन्तरिक्षमधूर्ते भद्रम् सविता समुद्रम् यत्रा समुद्रस्कभिगव्यौ नवान्नवास्व विदादस्य वेद अतो भूरत आबुद्धितम् रजोद्यावापृथिवि अप्रथेताम् हस्तेनमन्यत भवद्यजद्रममर्त्यस्य भुवनस्य भूना सुपर्णो अङ्गद विदुर्गरुत्मान् पूर्वो जातस्वौ अस्यानुधर्म गामजिवग्रामम् योयोधिरिवाश्वान् भास्रेव वत्सम् सुमनादुहाना अतिरिव जायामभिनोऽन्ये तु धत्तादिवस्त पिता विश्ववारः हिरण्यस्तो वत्सविधर्यथा त्वाङ्गिरतो जुह्वे वाजेः अस्मिन् देवात्वाच्चन्नवदेवन्दमानस्वमस्येवाम् सम्प्रति जागराहम् समिद्धश्चित् समिद्धते देवेभ्यो हव्यवाहन आदित्ये रुद्रैर्वसुभिर्नागहि मृळीकाय नागहि इमम् यज्ञमिदम् वचो जुजुषाणभुपागहि मर्तादस्तादमिधानहवामहे मृळीकाय हवामहे वामो जातवेदसम् विश्ववारम् गृणे धिया अग्नेः देवाम् आवहन प्रियव्रतान् मृळीकाय प्रियव्रतान् अग्निर्देवो देवानामभवत्पुरोहितोऽग्निम् मनुष्या आर्यस्वीरे अग्निम् महो धनसातापहम् भुवे मृळीकम् धनसातये अग्निरग्निम् भरद्वाजम् गविष्ठिरम् प्रावन्नः कण्वम् दशरस्युमाहवे अग्निम् वसिष्ठो हवते पुरोहितो मृळीकाय पुरोहितः श्रद्धयाग्निः समिद्धते श्रद्धया भूयते हविः श्रद्धाम् भगस्य मूर्धनिवतारेरामसि प्रियम् श्रद्धेतरः प्रियम् श्रद्धेतिरासः प्रियम् भोजेषु यज्जस्विदम् मा बुधिरम् गृधि यथा देवा असूरेण श्रद्धा उग्रेणो जग्रे एवम् भोजेषु यज्जस्वस्मागमुदितम् गृधि श्रद्धाम् देवायजमाना वायुगो पागुपासते श्रद्धाम् हृदय्या अयागोच्या श्रद्धया विन्दते वसु श्रद्धाम् प्रादर्हवामहे श्रद्धाम् मध्यन्दिनम् परि श्रद्धाम् सूर्यस्य निम्रति श्रद्धे श्रद्धापजेहनाः मेधामङ्गीरतो मेधाम् सप्तऋषयो ददुः मेधामिन्द्रश्चाग्निश्च मेधाम् दादादधातु ते मेधाम् ते वरुणो राजा मेधाम् देवी सरस्वती मेधाम् ते अश्विनौ देवाबाधत्ताम् पुष्करस्रजा या मेधा अप्सरस्तु गन्धर्वेषु जयन्मनाः
दैवीया मानुषी मेधासा मामाविशता दिमा यन्मेनोक्तम् तत्र मताम् सकलेयम् यदनुब्रुवे निशामदम् निशामहैमये व्रतम् सह व्रतेषु भूयासम् ब्रह्मणा सङ्गमे महि शरीरम् मे विदर्शनम् वाङ् मे मधुमद्वाम् अरद्धमासौ सूर्यो ब्रह्मणानि सश्रुतम् मे वाप्रासीः मेधाम् देवीम् मनसारेजमानाम् गन्धर्वजुष्टाम् प्रतिरोजुषस्व मह्यम् मेधाम् वद मह्यम् श्रियम् वद मेधाविभूयासमजराजविष्णो सदस्वतिमद्भूतम् प्रियमिन्द्रस्य काम्यम् सरिम् मेधामजाशिषम् मेधाम् देवगणा प्रियजनश्चोपासरे तजामा मेधजा मे मेधाविनम् कुरु मेधाव्या अहम् सुमनाः सुप्रतीकः श्रद्धामनाः सत्यमधिसुसेवाः महायराधारयिष्टप्रभक्ता भूयादमस्मे सरजाः प्रयोगे सादयित्रा महानस्य मित्रघातो अद्भुतः न यस्य हन्यते स घानजीयते कदाचन स्वस्तिरा विशस्पतिर्वक्त्रामि मृदो वशी वृषेन्द्रः पुरये नः सोमवाभयङ्करः विरक्षो विमृधो जहि विवृत्रस्य हनूर्ज विमन्यमिन्द्रवृत्रहन्न मित्रस्याभिदासतः विनायन्द्रमृधो जहि नीता यच्छ वृतन्यतः यो अस्माभिदासत्यधरम् रमजातमाः अवेन्द्रद्विषतो मनो प्रतिज्ञा सतोपधम् विमन्योः शर्म यच्छवरीयोयवयाबधम् ीङ्कयन्तीरभस्युभजिन्द्रम् जातमुपासते वेदानासः सुवीर्यम् त्वमिन्द्रबलादधि सहसो जातभोजसः त्वम् वृषन् वृषेरसि त्वमिन्द्रादिवृद्धाव्या अन्तरिक्षमतिरः उद्यामस्तभ्रावोजसा त्वमिन्द्रसोषसमर्कम् बिभर्षि बाह्वोः वज्रम् सितारवोजसा त्वमिन्द्राभिभूरसि विश्वा जातान्योजसा सविश्वाभुवा भवः सोमजेकेभ्यः पवतेभ्यतमेकमुपासते तेभ्यो मधुप्रधावदितांसि देवापि गच्छतान् तमसाये अनादृष्टास्तमसाये स्वर्जयोः तपोये चक्रिरे महस्तांसि देवापि गच्छतान् ये युध्यन्ते प्रदहरे शूराः सोये तनूत्यजाः ये वा सहस्रदक्षिणास्तांश्चि देवापि गच्छतात् ये चित्पूर्वर्दसापहृता वा नृता वृथाः विक्रेन्द्रपस्वतो यमतांश्चि देवापि गच्छतात् सहस्रणीताः कवयो ये गोपायन्ति ऊर्जम् ऋषेन्द्रपस्वतो यमतभोजा अपि गच्छता।